कल्पितमासनं हिमजले स्नानं च दिव्यांबरं नानारत्नविभूषितं मृगमदा मोदांकितं चंदनं जातीजंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देवदयानिधे पशुपते कृत्कल्पितं सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भापलं पानकं शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलम् ताम्बूलम् मनसा मया विरचितम् भक्त्या प्रभो स्वीकुरु छत्रम् चामरयोर्युगम् व्यजनकम् चादर्शकम् निर्मलम् बहुविधा एतत् समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो आत्मा त्वं गिरिजामति सहचरा प्राणाशरीरं गृहम् जाते विषयो बभोगरचना निद्रा समाधिस्थितिः सञ्चार पदयो प्रदक्षिणविधि स्तोत्राणि सर्वागिरो यद्यत् कर्म करोमि तत् तदखिलं शम्भो तवाराधनम् कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाम्भे श्री महादेव शम्भो जय करुणाभे श्री महादेव शम्भो श्री महादेव शम्भो श्री महा